राम। श्रीमद्भागवत महापुराण मूल पाठ। श्रीमद्भागवत महापुराण द्वितीय स्कंद अध्याय 10 10 ट्रेक में।
ओम तत्सत। ओम नमो भगवते वासुदेवाय। श्रीमद्भागवत महापुराणम द्वितीय स्कंद अथ प्रथमोध्याय। ओम नमो भगवते वासुदेवाय। श्री शुक उवाच। वरीयानेश ते प्रश्नः कृतो लोकहितं द्रिप आत्मवित्सम्मत पुंसां श्रोतव्यादिषु यः परः। वरीयानेश ते प्रश्नः कृतो लोकहितं द्रिप आत्मवित्सम्मत पुंसां श्रोतव्यादिषु यः परः। श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रशः। अपश्यतामात्मतत्त्वं गृहेषु गृहमेधिनाम्। निद्रया ह्रियते नक्तं व्यवायेन च वा वयः। दिवाचार्थे हया राजन् कुटुम्बभरणेन वा। देहापत्यकलत्रादिष्वात्मसैन्येष्व सत्स्वपि तेषां प्रमत्तो निधनं पश्यन्नपि न पश्यति। तस्माद् भारत सर्वात्मा भगवानीश्वरो हरिः। श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छता भयम्। एतावान् साङ्ख्ययोगाभ्यां स्वधर्मपरिनिष्ठया जन्मलाभपरपुंसामन्ते नारायणस्मृतिः। प्रायेण मुनयो राजन्निवृत्ता विधिषेधतः। नैर्गुण्यस्थारमन्ते स्म गुणानुकथने हरेः। इदं भागवतं नाम पुराणं ब्रह्मसम्मितम्। अधीतवान् द्वापरादौ पितृत्वैपायनादहम्। परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया। गृहीतचेता राजर्षे आख्यानं यदधीतवान् तदहं तेऽभिधास्यामि महापौरुषिको भवान्। यस्य श्रद्धसतामाशु स्यान्मुकुन्दे मतिस्सति। एतन्निर्विद्यमानानामिच्छतामकुतो भयम्। योगिनां नृपनिर्णीतं हरेर्नामानुकीर्तनम्। किं प्रमत्तस्य बहुभिः परोक्षैर्हायनैरिह। वरं मुहूर्तं विदितं घटेत श्रेयसे यतः। खट्वाङ्गो नाम राजर्षिर्ज्ञात्वे यत्तामिहायुषः। मुहूर्तात् सर्वमुत्सृज्य गतवान् अभयं हरिम्। तवाप्येतर्हि कौरव्य सप्ताहं जीवितावधि। उपकल्पय तत्सर्वं तावद् यत् साम्परायिकम्। अन्तकाले तु पुरुष आगते गतसाध्वसः। छिन्द्यादसङ्गशस्त्रेण स्पृहां देहे नुये च तम्। गृहात् प्रव्रजितो धीरः पुण्यतीर्थजलाप्लुतः। शुचौ विविक्त आसीनो विधिवत्कल्पितासने। अभ्यसेन्मनसा शुद्धं त्रिवृद्ब्रह्माक्षरं परम्। मनो यच्छेज्जितश्वासो ब्रह्मबीजमविस्मरन्। नियच्छेद्विषयेभ्योक्षान्मनसा बुद्धिसारथिः। मनः कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया। तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा। मनो निर्विषयं युक्त्वा ततः किञ्चन न स्मरेत्। पदं तत्परमं विष्णोर्मनो यत्र प्रसीदति। रजस्तमोऽभ्यामाक्षिप्तं विमूढं मन आत्मनः। यच्छेद्धारणया धीरो हन्ति या तत्कृतं मलम्। यस्यां सन्धार्यमाणायां योगिनो भक्तिलक्षणः। आशु सम्पद्यते योग आश्रयं भद्रमीक्षतः। राजोवाच। यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता यादृशी वा हरेदाशु पुरुषस्य मनोमलम्। श्रीशुक उवाच। जितासनो जितश्वासो जितसङ्गो जितेन्द्रियः। स्थूले भगवतो रूपे मनः सन्धारयेद्धिया। विशेषस्थस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम्। यत्रेदं दृश्यते विश्वं भूतं भव्यं भवच्च सत्। आण्डकोशे शरीरेऽस्मिन् सप्तावरणसंयुते। वैराजपुरुषो योऽसौ भगवान् धारणाश्रयः। पातालमेतस्य हि पादमूलं पठन्ति पार्ष्णिप्रपदे रसातलं। महातलं विश्वसृजोतगुल्फौ तलातलं वै पुरुषस्य जङ्घे। द्वे जानुनी सुतलं विश्वमूर्तेरुरुद्वयं वितलं चातलं च। महीतलं तज्जगनं महीपते नभस्थलं नाभिसरो गृणन्ति। उरस्थलं ज्योतिरनीकमस्य ग्रीवामहर्वदनं वै जनोऽस्य। तपोरराटीं विदुरादिपुंसः सत्यं तु शीर्षाणि सहस्रशीर्ष्णः। इन्द्रादयो बाहवाहुरुस्राः कर्णौ दिशः श्रोत्रममुस्य शब्दः। नासत्यदस्रौ परमस्य नासे घ्राणोऽस्य गन्धो मुखमग्निरिद्धः। द्यौरक्षिणी चक्षुरभूत्पतङ्गः पक्ष्माणि विष्णोरहनी उभे च। तद्भ्रूविजृम्भः परमेष्ठिधिष्ण्यमापोऽस्य तालूरस एव जिह्वा। छन्दांस्यनन्तस्य शिरो गृणन्ति दंष्ट्रायमस्नेहकला द्विजानि। हासोजनोन्मादकरी च माया दुरन्तसर्गो यदपाङ्गमोक्षः व्रीडोत्तरोष्ठोधर एव लोभो धर्मस्तनो धर्मपथोऽस्य पृष्ठम् कस्तस्य मेढ्रम् वृषणौ च मित्रौ कुक्षिः समुद्रागिरयोस्थिसङ्घाः नद्योऽस्य नाड्योऽस्ततनूरुहाणि महीरुहा विश्वतनोर्नृपेन्द्र अनन्तवीर्यः शोषितम् मातरिष्वा गतिर्वयः कर्मगुणप्रवाहः ईशस्य केशान् विदुरम्बुवाहान् वासस्तु सन्ध्याम् कुरु वर्यभूम्नः अव्यक्तमाहुहृदयम् मनश्च स चन्द्रमा सर्वविकारकोशः विज्ञानशक्तिम् महिमामनन्ति सर्वात्मनोऽन्तःकरणम् गिरित्रम् अश्वास्वतर्युष्ट्रगजानखानि सर्वे मृगाः पशवः श्रोणिदेशे वयांसि तद्व्याकरणम् विचित्रम् मनुर्मनीषा मनुजो निवासः गन्धर्वविद्याधरचारणाप्सर स्वरस्मृतिरसुरानी कवीर्यः ब्रह्माननम् क्षत्रभुजो महात्मा विदुरुरङ्गृश्रितकृष्णवर्णः नानाभिधाभिज्यगणोपपन्नो द्रव्यात्मकः कर्मवितानयोगः इयानसावीश्वरविग्रहस्य यः सन्निवेश कथितो मया ते सन्धार्यतेऽस्मिन् वपुसि स्थविष्ठे मनः स्वबुद्ध्या नयतोऽस्ति किञ्चित् स सर्वधीवृत्यनुभूत सर्व आत्मा यथा स्वप्नजनेक्षितैकः तम् सत्यमानन्दनिधिम् भजेत नान्यत्र सज्जेत् यत आत्मपातः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वितीयस्कन्धे महापुरुषसंस्थानुवर्णने प्रथमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।